विपर्यन्तानामेव स्थितिः चुक्तम् तदभावे भवान् इच्छत्रापि तदादीनामः इच्छनेन अकारहास्य भवच्छब्दः प्रथमेकवचने सुप्रत्यये भवत् सु इति विच्यते एवञ्च भवच्छब्दस्यापि सर्वादिगणपठितत्वेन तत्रापि तदादीनामः इच्छनेन अकारः अन्तादेशेन स्यात् यदा द्वौ द्वौ इति रूपं जातम् एवं भवः भवौ भवाः इत्येव रूपाणि स्युः अतः किं वक्तव्यं द्विपर्यन्तानामेव चिदादिप्रयुक्तं कार्यं भवति इति वक्तव्यं एवञ्च भवच्छब्दस्य विपर्यन्तेषु अभावात् न तत्र अकारः अन्तादेशेन भवति तेन भवान् भवन्तौ भवन्तः इति तकारान्तशब्द एव भवति इत्यर्थः संज्ञायाम् उपसर्जनत्वेन नात्वं सर्वाज्यन्तर्गणकार्यत्वं चदादीनाम् अह इत्यनेन विधीयमानं कार्यं नाम अकारादेशः अन्तर्गणकार्यं भवति नाम सर्वाज्यन्तर्गणकार्यम् सर्वनामसंज्ञा च संज्ञोपसर्जनीभूतास्तु न सर्वादयः इत्युक्तं संज्ञावाचकस्य उपसर्जनीभूतस्य च सर्वनामसंज्ञा न भवति इत्युक्तम् एवञ्च संज्ञास्थले उपसर्जनस्थले च चदादीनामः इति सूत्रेण अकारादेशः न भवति अत एव द्विर्नाम कश्चित् कश्चित् द्विः इति संज्ञा क्रियते यदा घिः इत्युक्तं तदा घिसंज्ञा यदा कृता तद्वत् द्विः इति संज्ञा क्रियते तर्हि द्विसु इत्यत्र तत्र चदादीनामः इत्यनेन अकारः अन्तादेशेन न भवति तथा च द्विः द्वि द्विः द्वि द्वयः इति हरिशब्दवदेव रूपाणि तत्र एकवचनं बहुवचनञ्च विद्येते विद्यन्ते तेन केषु कस्यचित् संज्ञा तत्र द्वौ स्तः बहोऽपि स्युः अतः एकवचनमस्ति बहुवचनमपि अस्ति संज्ञावाचकत्वे तु न अत्वम् अकारादेशः न भवति एवं द्वौ अतिक्रान्तः द्वौ अतिक्रान्तः इति विच्यते द्वौ अतिक्रान्तः इत्यत्र अतिद्वि इति विच्यते अतिद्वि इत्यत्र द्विशब्दार्थस्य अप्राधान्ये न तत्र अकारः अन्तादेशेन भवति अत एव अतिद्विः अतिद्वि अतिद्वयः इत्येव
प्राधान्ये तु परमद्वौ इत्यादि नाम परमौ च तौ द्वौ च इति कर्मधारे समासः अत्र संज्ञोपसज्जनाभावात् द्विशब्दः संज्ञा न हि संज्ञाभूतः नापि अप्रधानः अतः तत्र का अत्वं भवति तत्र चदादीनामः इत्यस्य आङ्गत्वात् पदाङ्गाधिकारे तस्य च तदन्तस्य च इति ज्ञायेन तत्र द्विशब्दान्तस्यापि भवति तेन परमद्वि औ इत्यत्र चिदाज्यत्वे परमद्वा औ वृद्धिरेचि परमद्वौ इत्यादि रूपाणि भवन्ति अनन्तरम् औडुलोमिः उडूनि नक्षत्राणि इव लोमानि यश्च सः उडुलोमन् शब्दः तस्यापच्यम् उडुलोम्नः अपच्यं पुमान् इत्यर्थे बाह्वादित्वात् इञि प्रत्ययः इञि प्रत्यये उडुलोमन् इ वृद्धिः वृद्धौ औडुलोमन् इ नस्तधित इच्छनेन टिलोपे कृते औडुलोमिः इति रूपं भवति औडुलोमि शब्दात् सुप्रत्यये औडुलोमि सुवृत्तिसर्गो औडुलोमिः एवम् औडुलोमी इति बहुवचने तु उडुलोमाः इति भवति तत्र उडुलोम्नः अपच्यानि पुमांसः इत्यर्थे बाह्वादित्वात् इञ् प्राप्ते तं बाधित्वा లోమ్నః అపచ్యేషు బహుషు అకారో వక్తవ్యః. లోమ్నః లోమన్ శబ్దాంతాత్ అపచ్యేషు బహుషు ఇత్యర్థే తత్ర అకార ప్రత్యయో భవతి. ఈ ప్రత్యయం బాధిత్వా అకార ప్రత్యయో భవతి. ఏవంచ ఉడులోమన్ ఆ ఇతి స్థితే తత్ర టిలోపే కృతే ఉడులోమ ఇచ్చేవ భవతి తత్ర నవృద్ధిర్భవతి ఇత నిత్యపరే నాస్తి ఇతి కృత్వా. అతః ఉడులోమ శబ్దాత్ ప్రథమా బహువచనే ఉడులోమ అస్ ఉడులోమ అస్ ఇతి స్థితే పూర్వ సవర్ణ దీర్ఘే ఉడులోమాస్ ఇతి జాతే రుత్వ విసర్గయోః ఉడులోమాః ఇతి. ఏవం ఔడులోమిం ఔడులోమీ ఇతి ఇయంతం రూపం ఏకవచన ద్వివచనయోః బహువచనేత్ ఉడులోమాన్ ఇతి భవతి. హరివత్ రామశబ్దవచ్చ ఏక ద్వివచనయోః హరిశబ్దవత్ బహువచనేత్ రామశబ్దవత్ రూపాణి భవంతి ఇత్యర్థః ఇతి ఇదంతాః. అనంతరం వాత ప్రమీహి ఇతి ఉణాది సూత్రేణ మాంగః ఈ ప్రత్యయః. వాతం ప్రమిమీతే ఇత్యర్థే వాతశబ్దే ఉపపదే ప్రపూర్వకాత్ మాంగ్ ధాతోః వాత ప్రమీహ్ ఇతి సూత్రేణ ఈ ప్రత్యయో భవతి. ఈ ప్రత్యయశ్చ కిత్ భవతి. ఏవంచ వాత ప్రమా ఈ ఇతి స్థితే ఆతో లోప ఇటి చ ఇచ్చనేన ఆకార లోపే కృతే వాత ప్రమీ ఇతి. తతః సుప్రత్యయే వాత ప్రమీహ్. అనంతరం వాత ప్రమ్యౌ ఇతి వాత ప్రమీ ఔ ఇతి స్థితే తత్ర పూర్వసవర్ణదీర్ఘే ప్రాప్తే ప్రథమయోః పూర్వసవర్ణః ఇచ్చనేన పూర్వసవర్ణదీర్ఘే ప్రాప్తే దీర్ఘాజ్యసి చ దీర్ఘాజ్యసి ఇచి చ పరే న పూర్వసవర్ణదీర్ఘః పూర్వసవర్ణదీర్ఘః న భవతి ఇత్యుక్తం. అతః వాత ప్రమీ ఔ ఇచ్చత్ర యణాదేశే కృతే వాత ప్రమ్యౌ వాత ప్రమ్యః ఇతి. వాత ప్రమీ జస్ జకార సైత్సోజ్ఞ వాత ప్రమీ అస్ యణాదేశే కృతే వాత ప్రమ్య సరుత్సర్గౌ వాత ప్రమ్యః. హే వాత ప్రమీహి ఇతి హే వాత ప్రమీసు ఇతి విద్యతే. హే వాత ప్రమీసు ఇచ్చత్ర హ్రస్వాంతమంగన్న భవతి ఇతి సులోపః న భవతి. ఏవంచ హే వాత ప్రమీసు ఇచ్చత్ర రుత్వభిసర్గయోః హే వాత ప్రమీహి. అమీషసి చ వాత ప్రమీమ్ అమి పూర్వః వాత ప్రమీ అం వా ద్వితీయకవచనే వాత ప్రమీ అం ఇతి స్థితే అమి పూర్వః ఇచ్చనేన పూర్వరూపే కృతే వాత ప్రమీం వాత ప్రమ్యౌ వాత ప్రమీన్ వాత ప్రమ్యా వాత ప్రమీభ్యాం ఇత్యాది. వాత ప్రమ్యః వాత ప్రమ్యోః వాత ప్రమ్యాం షష్ఠీ బహువచనే వాత ప్రమీ ఆం ఇతి భవతి. అచ్చ దీర్ఘాంతత్వాత్ హ్రస్వనజ్జాపో నుట్ ఇతి సూత్రేణ నుడాగమః న భవతి. దీర్ఘాంతత్వాత్ నుట్ నుడభావే వాత ప్రమీ ఆం ఇతి స్థితే యణాదేశే కృతే వాత ప్రమ్యాం. ఏ ఙౌతు సవర్ణ దీర్ఘః వాత ప్రమీ ఇతి రూపం భవతి. వాత ప్రమీ శబ్దాత్ సప్తమేకవచనే ణిప్రత్యయే వాత ప్రమీ ఈ ఇతి స్థితే అకసవర్ణ దీర్ఘ ఇచ్చనేన సవర్ణ దీర్ఘే కృతే వాత ప్రమీ ఇతి రూపం. వాత ప్రమ్యోః వాత ప్రమీషు ఏవం యయీ పప్యాదయః. ఏవం యయీ యాంతి అనేన ఇచ్చనేన యాంతి అనేన ఇత్యర్థే యా ధాతోరపి యాపోః కిద్వే చ ఇతి సూత్రేణ ఈ ప్రత్యయో భవతి. యా ధాతోః ద్విత్వమపి భవతి. పాతి లోకమితి పపీః సూర్యః పా ధాతోః ఈ ప్రత్యయః. ఏవం తస్య చ కిత్వాత్ ద్విత్వానంతరం ఆకారస్య లోపే కృతే పపీః పప్యౌ పప్యః ఇతి వాత ప్రమీ శబ్దవత్. క్విబంత వాత ప్రమీ శబ్దస్య తు అమీషసి నౌ చ విశేషః. अत्र ईप्रत्ययान्तः वातप्रमी शब्दः उक्तः, परन्तु क्विबन्तः वातप्रमी शब्दः अभिविद्यते माङ्माने इत्यस्मात् कर्तरि क्विप् भवति, कर्तरि क्विपि वातप्रमी इति रूपम्। एवञ्च वातप्रमीषु वातप्रम्यौ वातप्रम्यः इत्येव, परन्तु द्वितीयेकवचने अमि वातप्रमी अम् इति स्थिते, वातप्रमी अम् इति स्थिते अमिपूर्वः इति सूत्रेण पूर्वरूपे प्राप्ते तं बाधित्वा एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यण् भवति। एरनेकाचः असंयोगपूर्वस्य इति सूत्रेण यण् भवति, यणि वातप्रम्यं वातप्रम्यौ वातप्रम्यः इत्यादि। एवञ्च एरनेकाचो संयोगपूर्व, यतोहि क्विबन्तत्वे तत्र धातुत्वं विद्यते, मा इत्यस्य धातुत्वं विद्यते, एवञ्च मा इति अत्र ईकारः विद्यते असंयोगपूर्वः ईकारः, तदन्तो धातुः मी इत्याकारकः, तदन्तम् अनेकाचकमङ्गं वातप्रमी इत्याकारकं, तस्य अजादौ प्रत्यये परे यणादेशे कृते वातप्रम्यं वातप्रम्यौ वातप्रम्यः इत्यादि इत्यादि प्रधीशब्दवत्। अनन्तरं बह्व्यः श्रेयस्यो यस्यसः इति,
बह्व्यः श्रेयस्यः यस्यसः बहुश्रेयसी, बह्व्यः श्रेयस्यः यस्यसः इति विग्रहः क्रियते। अत्र श्रेयसी शब्दः विद्यते ञन्तः दीर्घञन्तः, अतः बहुश्रेयसी शब्दात् सुप्रत्यये कृते बहुश्रेयसी सु इति स्थिते, बहुश्रेयसी शब्दस्य दीर्घञन्तत्वेन ततः परस्य सुप्रत्ययस्य हलिङ्गाभ्योदीर्घादित्यनेन सुलोपे कृते बहुश्रेयसी इति रूपम्, सम्बुद्धौ तु हे बहुश्रेयसि इति रूपं भवति। हे बहुश्रेयसी सु इति स्थिते, अत्र यूस्त्र्याख्यौ नदी, यूस्त्र्याख्यौ नदी,
ईश्च ऊश्च यू,
स्त्र्याख्यौ
स्त्रियम् आचक्षाते इति स्त्र्याख्यौ इति, अनन्तरं शब्दस्वरूपम् अर्थात् लभ्यते,
नाम केवलं नित्यस्त्रीलिङ्गौ इत्यर्थः। शब्दस्वरूपम् इत्यधिक्रियते यू इति तस्य विशेषः, तथा च तदन्तमिति, एवञ्च ईजूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः, ईकार ऊकारान्तौ नित्यस्त्रीलिङ्गशब्दौ नदीसंज्ञकौ भवतः इत्यर्थः। अत्र बहुश्रेयसी इत्यत्र बहुश्रेयसी इत्यस्य ईकारान्तत्वेन नित्यस्त्रीलिङ्गत्वेन च तच्च नदीसंज्ञा भवति इत्युच्यते, परन्तु अत्र बहुश्रेयसी शब्दः विद्यते, तत्र कथं विग्रहः कृतः? बह्व्यः श्रेयस्यः यस्यसः बहुव्रीहिसमासः कृतः, बहुव्रीहिसमासे अन्यपदार्थस्य एव प्राधान्यम्। एवञ्च बहुश्रेयसी शब्दः पुंलिङ्गे विद्यते खलु, बह्व्यः श्रेयस्यः यस्यसः इति खलु उक्तम्, एवञ्च बहुश्रेयसी शब्दः पुंलिङ्गे विद्यते, नित्यस्त्रीलिङ्गस्यैव खलु ईकारान्तस्य शब्दस्य नदीसंज्ञा, अत्र स्त्रीलिङ्ग एव नास्ति, कथं नित्यस्त्रीलिङ्गत्वम् इति चेत् उच्यते प्रथमलिङ्गग्रहणञ्च, प्रथमस्य लिङ्गस्य ग्रहणं कर्तव्यम्, प्रथमस्य नाम समासादिप्रवृत्तेः पूर्वं यत् स्त्रीलिङ्गं तस्यापि ग्रहणं तमपि आश्रित्य नदीसंज्ञा भवति, अर्थात् नित्यस्त्रीलिङ्गशब्दः समासस्थले किं भवति लिङ्गान्तरं प्राप्नोति, जायमानः पुरुष एव परन्तु अत्र अद्यतने काले दृश्यते खलु ऑपरेशन इत्यादिना लिङ्गविपरिणामः दृश्यते तादृशः अन्नस्य सयाप्सोऽपि पुरुष एव भवति यद्यपि शस्त्रचिकित्सादिभिः पुरुषो जातः स्त्री परन्तु प्रथमं तु स्त्री एव खलु तमाश्रित्य तस्य स्त्रीत्वमपि विद्यते स्त्रियः तं स्प्रष्टुं दूरं दूरं गच्छन्ति पुरुषः स्त्री भवति परन्तु तत्र तस्य पुरुषत्वम् ईषदिव तत्र स्त्रीषां स्त्रीणां दृष्टिपथे विद्यते नाम सः प्रथमं पुरुष एव आसीत् अतः न तं स्प्रष्टुम् ईहन्ते यत्नं कुर्वन्ति एवमेव समासप्रवृत्तेः पूर्वं नित्यस्त्रीलिङ्गः यः शब्दः स च अधुना समासस्थले यद्यपि लिङ्गान्तरं भजते तथापि पूर्वं लिङ्गम् आश्रित्यापि नदीसंज्ञा वक्तव्या अर्थात् श्रेयसी शब्दः विद्यते श्रेयसी शब्दः नित्यस्त्रीलिङ्गशब्द एव श्रेयसी शब्दः नित्यस्त्रीलिङ्गः समासावस्थायां पुल्लिङ्गो जातः तथापि पूर्वं विद्यमानं नित्यस्त्रीत्वम् आश्रित्यात्र नदीसंज्ञा भवति एवञ्च अत्र नदीसंज्ञायां हे बहु श्रेयसी सु इति विद्यते अत्र अम्बार्थ नज्योर्ह्रस्वः अम्बार्थानां नज्यन्तानां च ह्रस्वः स्यात् सम्बुद्धौ सम्बुद्धौ इत्यनुवर्तते सम्बुद्धौ च इत्यतः एवञ्च अम्बार्थकानां शब्दानाम् अम्बार्थका शब्दः अम्बा अल्ला अक्का एव एवं नज्यन्तश्च च ह्रस्वो भवति कदा सम्बुद्धौ परतः सम्बुद्धौ परतः अम्बार्थकानां शब्दानां नज्यन्तानां च ह्रस्वो भवति च अत्र हे बहु श्रेयसी सु इति खलु विद्यते हे बहु श्रेयसी शब्दस्य नज्यन्तत्वेन तस्य सु इति सम्बुद्धौ परतः ह्रस्वे कृते हे बहु श्रेयसि सु इति जाते एं ह्रस्वात् सम्बुद्धे चनेन सुलोपे कृते हे बहु श्रेयसि शशि बहु श्रेयसि बहु श्रेयस्यौ बहु श्रेयस्यः बहु श्रेयसीं बहु श्रेयस्यौ बहु श्रेयसीन् बहु श्रेयसी शकारस्य संज्ञायां लोपे च बहु श्रेयसी अस् प्रथमेव पुरुषनाचनेन पुरुषवर्णदीर्घे बहु श्रेयसी बहु श्रेयसी शब्दः पुल्लिङ्गे विद्यते अतः तस्माच्च सुवर्णपुंसीचनेन नकारादेशे कृते बहु श्रेयसी बहु श्रेयस्या बहु श्रेयसी का एनादेशे बहु श्रेयस्या बहु श्रेयसीभ्यां बहु श्रेयसीभिः बहु श्रेयस्यै इति बहु श्रेयसी ज्ञे नकारस्य संज्ञायां लोपे च बहु श्रेयसी ए इति स्थिते आन्नद्याः आन्नद्याः अत्र आट् नद्याः इति विभागः आट् नद्याः मेलने आण्नद्याः इति रूपम् एवञ्च अत्र अङ्गस्य इत्यपि क्रियते नद्याः इति अङ्गस्य इति विशेषणं तदन्तमिति नज्यन्तात् अङ्गात् परेषां नितां आडागमः स्यात् नज्यन्तात् परेषां घेर्ङिति इत्यतः ङिति च अनुवर्तते षष्ठी बहुवचनान्तत्वेन तस्य विपरिणामः एवञ्च नज्यन्तात् परेषां नितां आडागमः स्यात् नज्यन्तात् परेषां नितां आडागमः स्यात् इत्यर्थो भवति एवञ्च बहुश्रेयसी शब्दः नज्यन्तः शब्दः तस्मात् परः मित् मे इति तस्य आडागमो भवति. आडागमे कृते बहुश्रेयसी आ ए आदश्च ऊर्ध्वेति चनुवर्तते. एवञ्च आदः अचिपरे वृद्धिरेकादेशः स्यात्. आटः अचिपरे वृद्धिरेकादेशः स्यात्. आडागमस्य अचिपरे वृद्धिः एकादेशेन भवति. आ ए इत्यत्र आ इति आडागमः, तस्य ए इति एकारः अचिपरे विद्यते. अतः वृद्धौ ऐकारादेशे कृते बहुश्रेयसी ऐ, एणादेशे कृते बहुश्रेयस्यै बहुश्रेयसीभ्यां बहुश्रेयसीभ्यः. बहुश्रेयस्या बहुश्रेयसी नस् नकारस्य संज्ञायां लोपे च बहुश्रेयसी अस् अस् इत्यस्यापि ङित्वेन आण्डज्यः इत्यनेन आडागमः. बहुश्रेयसी आ अस् आटोचीचनेन आटश्चैचनेन वृद्धिः. बहुश्रेयसी आस् एणादेशे बहुश्रेयस्याः बहुश्रेयस्योः बहुश्रेयसी ओस् एणादेशे बहुश्रेयस्योस् ऋत्वेसर्गौ बहुश्रेयस्योः. बहुश्रेयसीनां बहुश्रेयसी आम् बहुश्रेयसी शब्दः नज्यन्त ततः परस्य आमः ह्रस्वनज्जापोनुट्विच्यनेन नुडागमे कृते बहुश्रेयसीनां बहुश्रेयसी ङि इति विद्यते. बहुश्रेयसी ङि इत्यत्र नेरां नज्जां नीभ्यः नेः आं नद्यां नीभ्यः नदी च आप् च नीश्च नदी च आप् च नीश्च नद्यां नियः इत्यर्थः. आङ्गत्वेन प्रत्ययग्रहणे तदन्ताग्राह्याः इत्यनेन तदन्तग्रहणम्, आपः प्रत्ययत्वेन तदन्तग्रहणम्. एवञ्च नद्यन्तात् आबन्तात् नीशब्दाच्च परस्य नेः आंशा नद्यन्तादङ्गा आबन्तात् अङ्गा नी इति अङ्गात् परस्य निप्रत्ययस्य आम् इत्यादेशो. अत्र बहुश्रेयसी नि इति खलु विद्यते. बहुश्रेयसी इति नद्यन्तशब्दः, ततः परस्य ङेः आम् आमि कृते बहुश्रेयसी आम् गणादेशे बहुश्रेयस्याम् इति रूपं भवति. परन्तु बहुश्रेयसी आम् इति स्थिते बहुश्रेयसी इत्यस्य नज्यन्तत्वेन ह्रस्वनज्जापोनुट्विच्यनेन नुडागमः स्यात्. बहुश्रेयसी शब्दः नज्यन्तः, ततः परे आम् विद्यते, अतः अत्रापि नुडागमः स्यात् इति चेत् अत्र नुडागमस्य प्राप्तिर्विद्यते. आन्नद्याः इत्यनेन आडागमस्यापि प्राप्तिर्विद्यते. को वा भवति चेत् परत्वात् आटा नुड् बाध्यते. नाम तत्र बहुश्रेयसी आम् इत्यत्र आं नुडागमे प्राप्ते तं बाधित्वा प्रथमम् आण्डज्याः इत्यनेन आडागमो भवति. आडागमे कृते बहुश्रेयसी आ आम् बहुश्रेयसी आ आम् आकश्च इत्यनेन वृद्धिः. वृद्धौ कृतायां बहुश्रेयसी आम् इति भवति. गणादेशे बहुश्रेयसी आडागमे वृद्धौ च किं रूपं भवति? बहुश्रेयसी आम् पुनः आम् खलु विद्यते. अत्र प्राप्तिरस्ति खलु. आडागमे वृद्धौ कृतायां पुनः अनुडागमस्य प्राप्तिर्विद्यते खलु इति चेत् विप्रतिषेधे यद् बाधितं तद् बाधितमेव. विप्रतिषेधे परं कार्यमिति सूत्रेण यत् कार्यं बाधितं भवति तस्य पुनः उत्थानं न भवति, तद् बाधितमेव भवति, पुनः तत् कार्यं न भवति. अत्र विप्रतिषेधे परं कार्यमिति सूत्रेण आडागमं नृडागमं बाधित्वा आडागमो जातः. साधितः अनुदागमः पुनः न प्रवर्तते तथा च बहुश्रेयसि आम् इत्यत्रयणादेशे कृते बहुश्रेयस्यां बहुश्रेयस्योः बहुश्रेयसीषु अन्यन्तत्वात् न सुलोपः अतिलक्ष्मीः अस्तु लक्ष्मी शब्दः लक्ष धातोः लक्षेर्मुच् च इत्यनेन लक्ष धातोः ई प्रत्यये मुडागमे च लक्ष्मी इति रूपम् एवञ्च लक्ष्मी अतिक्रान्तः इति स्थिते अतिलक्ष्मी शब्दः भवति तस्मात् प्रथमे कवचने सुप्रत्यये कृते अतिलक्ष्मी सु इत्यत्र अतिलक्ष्मी इत्यस्य ण्यन्तत्वाभाव ई प्रत्ययान्तत्वेन ण्यन्तत्वाभावात् ततः प्रत्ययत् परस्य सुप्रत्ययस्य हलिङ्याभ्यो दीर्घादिच्यनेन सुलोपो न भवति तथा च अतिलक्ष्मी सु इति स्थिते रुद्रविसर्गयोः अतिलक्ष्मीः अतिलक्ष्म्यौ अतिलक्ष्म्यः इत्यादि बहुश्रेयसी शब्दवत् अर्थात् अत्रापि नदी संज्ञा विद्यते यूस्त्याख्यौ नदी इत्यनेन नदी संज्ञा विद्यते यद्यपि अतिलक्ष्मी शब्दस्य पुंस्त्वं तथापि लक्ष्मी शब्दः नित्यस्त्रीलिङ्गशब्दः अतः प्रथमलिङ्गग्रहणञ्च इत्यनेन लक्ष्मीशब्दस्य स्त्रीत्वेन नित्यस्त्रीत्वेन समासदशायां तस्य पुंस्त्वेऽपि नदीसंज्ञा भवति इत्यर्थः एवञ्च अतिलक्ष्मै अतिलक्ष्म्याः इत्यादि बहुश्रेयसी शब्दवत् रूपाणि भवन्ति इत्यर्थः कुमारीम् इच्छन् कुमारीव आचरन् वा ब्राह्मणः कुमारी कुमारीम् इच्छन् कुमारीव आचरन् वा अर्थात् प्रथमं कुमारी शब्दः ततः कुमारीम् इच्छन् इति इच्छारूपार्थे वा आचाररूपार्थे वा केच् प्रत्ययान्तो भवति त्यजन्तात् कुमारीय इति विद्यते अत्र आचारे क्विप् क्विप्रत्यये कृते क्विप् सर्वस्य लोपः य इत्यत्र अकारस्य लोपः यकारस्यापि लोपः पुनः कुमारी इति जातः प्रथमं कुमारी शब्दः केच् प्रत्ययेन तस्य धातुत्वम् सनाज्यन्ता धातवः इति धातुर्भवति ततः पुनः आचार्ये क्विप्रत्यये क्विबन्तत्वात् कृदन्तत्वेन तस्य पुनः प्रातिपदिकसंज्ञा एवञ्च कुमारी इत्यस्य को अर्थः कुमारीमिच्छन् इति वा कुमारीव आचरन् इति वा अर्थः एवञ्च कुमारीसु इति स्थिते कुमारीशब्दस्य ण्यन्तत्वेन अलिङ्ग्याभिदीर्घा सुपिश्य वृत्तं हल् इति सूत्रेण सुप्रत्ययस्य लोपः सुप्रत्ययस्य लोपे कृते कुमारी इत्येव अनन्तरं कुमार्यौ इति रूपं भवति कुमारी शब्दात् औ प्रत्यये कृते कुमारी औ इति स्थिते इकोयनचि इति सूत्रेण यनादेशे प्राप्ते तं बाधित्वा अचिष्णु धातुभ्रुवां इवो रियङ् वङौ इवो इश्च उश्च यू इश्च उश्च यू तयोः इवोः इवोः नाम इकार उकारान्तयोः इत्यर्थः
श्नुश्च धातुश्च भ्रूश्च श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम्
इवोः इति धातोः विशेषणं भवति श्नुप्रत्ययान्तः उकारान्त एव भ्रू इति उकारान्त एव तत्र विशेषणम् अनावश्यकम् अतः इवोः इति धातोः इत्यस्य विशेषणम् तथा च तदन्तविधिः नाम इवर्णान्त उवर्णान्तस्य धातोः इत्यर्थः कृष्णो इति प्रत्ययः प्रत्ययग्रहणे तदन्ताग्राह्याः इत्यनेन तदन्तग्रहणम् एवञ्च श्नुप्रत्ययान्तस्य इवर्ण उवर्णान्तस्य धातोः भ्रू इत्यस्य च अङ्गस्य इयन्वङ्गौ स्तः अजादौ प्रत्यये पदे इत्यर्थः श्नुप्रत्ययान्तस्य उक्तं खलु श्नु इति कर्णिः शृणोति इत्यादि श्नुप्रत्ययान्तस्य इवर्ण उवर्णान्तस्य धातोः भ्रू इति अङ्गं न धातुः भ्रू इत्यस्य च अङ्गस्य अङ्गस्य इत्यधि क्रियते भ्रू इत्यस्य च अङ्गस्य च इयङ्वङ्गौ स्तः कदा अजादौ प्रत्यये पदे सूत्रे अचि इति विद्यते प्रत्ययः इति अधिक्रियते सप्तम्यन्ततया विपरिणामः तेन तदादिविधिः एवञ्च प्रत्यये परतः इति एवञ्च उष्णप्रत्ययान्तस्य इवर्ण उवर्णान्तस्य धातोः भ्रू इत्यस्य च अङ्गस्य इयङ्वङ्गौ स्तः अजादौ प्रत्यये परे इयङ् उवङ् इयङिङकारस्य इच्छोण्य उवङिङकारस्य इच्छोण्य एवञ्च इयङ्वङ्गोः नित्वेन नित्या इत्यनेन अन्तादेशेन भवतः तत्र इकारस्थाने जायते इयङ् इत्यादेशो भवति उकारस्थाने उवङ् इत्यादेशो भवति आन्तरतम्यात् नाम अत्यधिकं सादृश्यस्य सत्वात् तालुस्थानिकस्य इकारस्य स्थाने तालुस्थानिकः इयङ् इत्यादेशो भवति एवम् उकारस्य ओष्ठस्थानम् ओष्ठस्थानकस्य उकारस्य स्थाने तादृश एव उवन् इति रूपं भवति एवञ्च तत्र कुमारी औ इति स्थिते कुमारी इति इवर्णान्तो धातुः त्यजन्तत्वेन धातुत्वम् उक्तं खलु एवञ्च कुमारी इति इवर्णान्तो धातुः तस्य औ इति अजातिः प्रत्ययः परे विद्यते अतः इयङादेशः स्यात् इयङि नकारस्य अकारस्य च इच्छङ्ग इय इति कुमारी इत्यत्र ईकारस्य स्थाने इय इत्यादेशो भवति एवञ्च इयङादेशः प्राप्नोति कुमार इयङादेशे कुमारीयौ इति रूपं स्यात् एवञ्च इति प्राप्ते अत्र इयङादेशे प्राप्ते एरनेकाचः असंयोगपूर्वस्य इनो यन् इति तः यन् इत्यनुवर्तते एः इति षष्ठ्यन्तं नाम इवर्णास्य इत्यर्थः अचिष्णु धातुभ्रुवाम् इत्यर्थतः धातुग्रहणं मात्रमनुवर्तते अतः एः इत्युक्तं खलु श्नुः भ्रूश्च इवर्णान्तौ न कदापि भवतः अतः धातुग्रहणं मात्रम् अनुवर्तते एः इति धातोः विशेषणं तदन्तविधिः इवर्णान्तः यः धातुः इत्यर्थः असंयोगपूर्वस्य संयोगः पूर्वे यशसः संयोगपूर्वः संयोगपूर्वो न भवतीति असंयोगपूर्वः तस्य असंयोगपूर्वस्य अत्र धातोः इत्यनुवृत्तं सश्च आवर्तते नाम धातोः धातोः इति वर्तते एकस्य धातोः एरिति विशेषणम् अन्यच्च धातोः इति अवयवषष्ठ्यन्तम् तत् असंयोगपूर्वस्य इत्यत्र संयोगपदे अन्वेति नाम धात्ववयवः यः संयोगः सः पूर्वो न भवति यः यः इवर्णः तदंतः यः धातुः इत्यर्थः। धातोः इति अंगस्य इत्यस्य विशेषणम्। अंगस्य इत्यति क्रियते, धातोः इति अंगस्य इत्यस्य विशेषणम् तदन्तविधिः। अनेकाचः इत्यपि अंगस्य विशेषणम्। एवञ्च धात्ववयव पूर्वः न भवति, धात्ववयव संयोगपूर्वः न भवति इवर्णः। तदन्तः यः धातुः, तदन्तस्य अनेकाचोऽङ्गस्य यणस्य कदा अजादौ प्रत्यये परे। अचिष्टु धातु भवामित्यतः अचीच्यनुवर्तते, पूर्ववत् अजादौ प्रत्यये परे इत्यर्थः। एवञ्च इवर्णः कीदृशः स्यात्? असंयोगपूर्वः स्यात्। नाम इवर्णात् पूर्वं धातोरवयवः संयोगः न स्यात्। तादृशः यः इवर्णः, तदन्तः यः धातुः, तादृशधात्वन्तस्य अनेकाचकस्य अङ्गस्य अजादौ प्रत्यये परे यणादेशो भवति इत्यर्थः। अत्र कुमारी औ इति खलु विद्यते, कुमारी औ इत्यत्र, कुमारी इत्यत्र इवर्णः विद्यते, ततः पूर्वं संयोगः नास्ति, धात्ववयव संयोगपूर्वो न भवति य इवर्णः। कुमारी इत्यत्र ईकारः, तदन्तः धातुः कुमारी इत्येव। तदन्तम् अनेकाचकम् अङ्गं कुमारी इति, तस्य औ इति अजादिः प्रत्ययः परे विद्यते, अतः यणादेशो भवति। एवञ्च अत्र यणादेशे कृते कुमार्यौ इति रूपं भवति। कुमार्यौ कुमार्यः, कुमारी जस् जकारस्य इत्संज्ञा, जकारस्य इत्संज्ञायां लोपे च कुमारी अस् इति स्थिते। अत्र एरणेकाचो संयोगपूर्वस्य इत्यनेन पुनः यणादेशे कृते कुमार्यौ कुमार्यः, हे कुमारि इति रूपं भवति। हे कुमारी सु इत्यत्र कुमारी शब्दस्य नित्यस्त्रीत्वेन वृत्तेः पूर्वं, कुमारी वा इच्छन् आचरन् वा इत्यतः पूर्वं कुमारी शब्दः नित्यस्त्रीलिङ्गशब्दः, तं गृहीत्वा अत्र नदी संज्ञा भवति। प्रथमलिङ्गग्रहणं च इत्युक्तत्वेन तत्र नदी संज्ञा भवति। एवञ्च नदी संज्ञायां कुमारीसु इत्यत्र अम्बार्थमध्योर्ह्रस्वः इत्यनेन ह्रस्वे कृते हे कुमारीसु, एङ्ग्रस्वात् सम्बुद्धे इत्यनेन सुलोपे कृते हे कुमारि। अमि शशि च कुमार्यं कुमार्यः, कुमारी शब्दात् द्वितीयैकवचने अम् प्रत्यये कृते कुमारी अम् इत्यत्र अमिपूर्वः इत्यनेन पूर्वरूपे प्राप्ते तं बाधित्वा एरणेकाचो संयोगपूर्वस्य इत्यनेन यणादेशे कृते कुमार्यं कुमार्यौ कुमार्यः कुमारी शस् शकारस्य इत्संज्ञा कुमारी अस्। अत्र प्रथमेव पूर्वसवर्णः इति पूर्वसवर्णदीर्घे प्राप्ते तं बाधित्वा अत्र किं भवति? यणादेशो भवति। यणादेशे कृते कुमार्यसृतिसर्गो कुमार्यः, कुमार्या कुमारीभ्यां कुमारीभिः, कुमार्यै कुमारीङ्गे नदी संज्ञा विद्यते इत्युक्तम्। अतः आण्नद्याः नद्यन्तात् परेषाङ्गिताम् आडागमः स्यादित्यनेन आडागमो भवति। आकृतकारस्य इत्संज्ञा कृत्वात् आज्यवयवे कुमारी आ ए आकृश्च आकृचपदे वृद्धिरेकादेशः स्यादित्यनेन वृद्धौ कुमारी ऐ जनादेशे कृते कुमार्यै
कुमारीभ्यां कुमारीभ्यः कुमार्याः इत्यादि।